एष रेडियो नेपाल सम्प्रति समाचारा श्रूयन्ताम् प्रवाचक उपेन्द्र दाहाल प्रधानमन्त्री केपी शर्मा ओली संयुक्त राष्ट्रसंघस्य 79वीं महासभायां भागं ग्रहीतुम् आगामिनः आश्विन मासस्य चतुर्थे दिवसे न्यूयॉर्क नगरं प्रस्थाता मन्त्रिपरिषद गत बृहस्पतिवासरस्य उपवेशस्य निर्णयान् सार्वजनिकर्तुम् ह्यः सिंहप्रासादे आयोजिते पत्रकार सम्मेलने सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च पृथ्वी सुब्बा गुरूङ उपवेशेन संयुक्त राज्य अमेरिका देशस्य न्यूयॉर्क नगरे आयोक्ष्यमाणायां संयुक्त राष्ट्रसंघस्य महासभायां सहभागी भवितुम् प्रधानमन्त्रिणः नेतृत्वस्य प्रतिनिधिमण्डलं संघटयितुम् निर्णीतम् अस्तीति असूचयत। एवमेव उपवेशेन ऐशैक विकास कोषाद सेचनाधुनिकीकरणाभिवृद्धि योजनायै प्राप्यमाणम् 15.7 मिलियन अमेरिका देशीय डलर मुद्राणाम् तदनुसारेण 15 अब्जानाम् 29 कोटीनाम् च रूप्यकाणाम् सौविध्यपूर्णस्य ऋणस्य स्वीकरणस्य सम्बन्धे वार्ताम् विधातुम् नेपाल सर्वकारस्य पक्षत अर्थमन्त्रालयस्य सहसचिवस्य नेतृत्वे वार्ता समूहम् संघटयितुम् निर्णीतम् वर्तते। मन्त्रिपरिषद उपवेशेन नेपाल प्रशासन सेवा समूहस्य राजपत्राङ्कित विशिष्ट श्रेण्या सचिव पदे गोविन्द बहादुर कार्किण पदोन्नतिम् विधाय बागमती प्रदेशस्य मुख्यमन्त्री मन्त्रिपरिषद कार्यालय पदस्थापनम् विधातुम् रेडियो नेपालस्य रिक्त कार्यकारी निर्देशक पदे अमर ध्वज लामा भिदम नेपाल दूरसंचार कम्पनी लिमिटेड संस्थानस्य रिक्त प्रबन्ध निर्देशक पदे संगीता पहाड़ी इतिमाम च नियुक्तम् निर्णीतम् वर्तते। एवमेव उपवेशेन कर्मचारी संचय कोषस्य संचालक समितेः अध्यक्ष पदे अर्थ मन्त्रालयस्य राजस्व सचिवम् दिनेश कुमार घिमिरे भिदम् नियोक्तुम् कोषस्य रिक्त संचालक पदे कृषि विकास कोषागारस्य प्रमुख कार्यकारी अधिकृतम् गोविन्द गुरूङ इत्यमुम् मनोनेतुम् नेपाल स्थपति परिषद रिक्त सदस्य पदे सुदूरपश्चिम प्रदेशात् विनोद बहादुर पाल इत्यमुम् कर्णाली प्रदेशात् अमिबिका महत इत्यमुम् लुम्बिनी प्रदेशात् लेखनाथ पाण्डेयम् गण्डकी प्रदेशात् निर्मला श्रेष्ठ चौधरीणम् मधेस प्रदेशात् श्याम किशोर यादवम् कोशी प्रदेशात् लीला श्रेष्ठम् च मनोनेतुम् निर्णीतम् वर्तते। तथैव मन्त्रिपरिषद उपवेशेन रोल्पा जनपदस्य गंगादेव ग्रामपालिकायाः नाम परिवर्तनम् विधाय सुकिदह ग्रामपालिकाम् निर्धारयितुम् ग्रामपालिकायाः मुख्यालयम् पञ्चमवडा क्षेत्रस्य सान्डाडा स्थानात् द्वितीयवडा क्षेत्रस्य सुखाओडार स्थानम् स्थानान्तरयितुम् च निर्णीतम् इति सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च पृथ्वी सुब्बा गुरूङ अज्ञापयत्। प्रधानमन्त्री केपी शर्मा ओली निगदति पुनस्थापिताम् शान्ति प्रक्रियाम् सुदृढाम् विधाय द्वन्द्वकालिक घटनायाः पुनरावृत्तिर्न भवतु इत्यत्र सर्वकारः सचेष्टो वर्तते। संक्रमणकालिका न्यायेन सह सम्बद्ध विषय ह्यो नेपाल समाजवादी दलस्य संयोजकस्य डाक्टर बाबुराम भट्टराई इत्यस्य नेतृत्वे गतेन प्रतिनिधिमण्डलेन प्रस्तुतम् 29 सूत्रीयम् ध्यानाकर्षण पत्रम् गृह्णन् प्रधानमन्त्री ओली नेपाली जनान् जात्याधारे विभज्य सामाजिक विद्वेषम् प्रसार्य च राष्ट्रिय एकतायाः दुर्बलीकरणस्य प्रयासः सफलो न भवति इति संस्पष्टयत। प्रधानमन्त्री ओली संघीय लोकतान्त्रिक गणतन्त्रात्मक व्यवस्थाम् सुदृढाम् विधाय जनतायाः विकासस्य समृद्धेः स्थायित्वस्य च आकांक्षाम् पूरयितुम् कथम् विधायाः अपि अराजकतायाः सत्ता समीकरण परिवर्तनस्य च सम्भावना नास्तीति अभासत। तदवसरे संयोजकः डा भट्टराई द्वयोः विपुल दलयोः सर्वकारः निर्मितोऽस्तीत्यतः संक्रमणकालिका न्यायम् निष्कर्षे प्रापयितुम् अवसरो विद्यते इति चर्चयन् तदर्थम् स्वकीयेन दलेनापि सहयोगो विधीयते इति प्रतिबद्धताम् व्यक्तवान्। प्रधानमन्त्री केपी शर्मा ओली कथयति विपन्न विद्यार्थिभ्यः प्रदीयमाना छात्रवृत्ति विद्यार्थिभिः प्राप्यमाणास्ति नवेति विषये सर्वकारेण अनुगमनम् विधीयते। ह्यः फेसबुक सामाजिक सञ्जालस्य माध्यमेन प्रधानमन्त्री ओली सर्वेषु स्थानीय स्तरेषु विषयेऽस्मिन् अनुगमनम् विधीयते इति असूचयत। प्रधानमन्त्री ओली सामुदायिक विद्यालयेषु षष्ठी कक्षातः दशमीम् कक्षाम् यावत् विद्यार्थिनाम् कृते प्रतिवर्षम् 18,000 रूप्यकाणि विज्ञान विषयस्य छात्राणाम् कृते प्रतिवर्षम् 24,000 रूप्यकाणि अनुदान स्वरूपेण प्रदातुम् सर्वकारेण 60 कोटि रूप्यकाणि विनियुङ्क्तानि सन्तीति अज्ञापयत् इति समाचारः।